கழுது நரிக்கும் சம அப்படின்னு पुनः आधारोऽभिकरणम् इत्यतः आहारः इति एव उच्यते. अधिकं कर्म इत्यतः कर्म इति वर्तते. आहारः कर्म भवति इत्येव तस्य अभिनिषश्च अभि इति उपसर्गद्वयम् अत्र विष इति धातुः तत्र त्रयः धातवः एकः उपसर्गः there is actually a combination. Abhini vishe is taken as aiko. There are two upasarga, abhi and ni, which are preceding the hatu vishe. Abhini is created anghata purva sakshe, vishate ne adhara na karma shya. This is super asma. This is hatu ne asti. Atta, sutra dreha, tatta kalvaitin sakshe. अभि इत्येतत् उपसर्गपूर्वकस्य ऋषतेः आहारकर्म भवति. नि इत्येतत् उपसर्गपूर्वकस्य ऋषतेः आहारकर्म भवति इति स्वतन्त्रतया अभि इत्येतयोः उपसर्गयोः ऋषधातुना सह योगः कल्पयितुं शक्नुमः. पासिबल् टु इण्टर्प्रिटर् इस् धातु इण्डर् अस्ति आर् नि ఆధారా కర్మసమేతా సన్మార్గం అభినందే సన్మార్గే సన్మార్గే ఆగ్రహ అస్తి తస్య ఇత్యాదీని ఉదాహరణాలు. అతః తత్ర సన్మార్గ ఆధారః యదా అభి ఇత్యేతత్ ఉపసర్గద్వయం అస్తి ఇతి సుభాగోః పూర్వం తదా తస్యేవ ఆధారస్య కర్మపరిణామ భవతి ఇత్యర్థమాత్. किमुक्तम् इति चेत् वस्तुतः लक्ष्यं प्रमाणम् अथवा प्रयोगः प्रमाणम् अवैयाकरणः सर्वदा शब्दप्रमाणकाः वैयाकरणाः सः प्रयोगः इति दृष्ट्वा करणीयम्. किन्तु वयं तु प्रयोगे अपि न निपुणाः. सः किं क्रियते भाष्यकारप्रमाणम् अवद्भाष्यकारस्य how did how were the prayoga rejected? Because there is a possibility of them changing over time. So we put it as pramana reaction. Reaction is a case of a mahavasya. Mahavasya is a uttam. Yatha dena udam yanam dattam. Yatha prayoga ha kriyanta. Yatha prayoga ha kriyanta. अभिषति इत्येव निमिषते इत्यत्र समस्तस्य प्रयोगः फैनल् आन्सर् फार् आल् दृष्टप्रयोगः प्रयोगः कथम् इत्येव सृष्टिमेव व्याकरणं भवति. वित्तप्रयोगः अभिनि इत्येव सङ्ग्रहपूर्वकस्य एव अस्ति इत्येवं व्याख्याने इति न चेत् संसर्गोक्षास्त्रे कथमस्ति इत्येव ज्ञायते. धर्मार्गम् अभिनिषते इति सत्यं, किन्तु पापे अभिनिवेशः इत्यपि प्रयोगः अस्ति. श्रूयते चित्तप्रयोगः, श्रूयते प्रेरितप्रयोगः, अष्टप्रयोगः, पापे अभिनिवेशः. अभिनिवः इति मातुरेव पापे इति आधारस्य अभिकरणत्वम् एव अस्ति, कर्मत्वं नास्ति. पापम् अभिनिवेशः इति नास्ति, पापे अभिनिवेशः इत्येव प्रयोगः अस्ति. कथं साधित्वम् इति प्रश्नः. यतोहि पूर्वतनसूत्रे अधिकं अत्र कथम् अत्रापि सन्मार्गे अधिनिवेशते इति प्रयोगः नास्ति, सन्मार्गम् अधिनिवेशते इत्येव भवतिप्रयोगः अस्ति अधिनिवेशः इति प्रयोगः भवति कथम् इति प्रश्नः. तदा उच्यते परिश्रयणे सम्प्रदानम् अन्यपरस्याम् इति सूत्रात् मन्दोपस्कृत्या अन्यपरस्यां ग्रहणम् अनुवर्ते व्यवस्थितभाषाश्रयणात् भवति न. व्यवस्थितभाषा इत्यस्य विकल्पः इत्यर्थः आप्षनल् विविधाषा इत्युक्ते रूपद्वयमपि चलितुमर्हति इत्यतः पाणिनिरेव वदति. विभाषा इति पाणिना उच्यते वा इत्युक्ते अन्यतरस्याम् इति वा उच्यते सः उदाहरणार्थं कृत्वा अन्यतरस्याम् इति उक्तं विकल्पेन भवति कर्मत्वम्. अतः नृत्येन कथं हारयति इत्यपि सः नृत्यं कथं हारयति इत्यपि पाठु इयमेव विभाषा इति उच्यते. So, because it's an optional option, that is, there are two forms possible and both are accepted. But that is actually not the case here. You have Dhanmargam Abhinivishate and there is a Sananta Prayoga, it has to be Vipyadhati, which means it has to be Karma. Tadato Pridantasya Prayoga Hasti Abhinivaya Saha, Tadato Adhikaranasya Prayoga, Artha Tathani Yoga Kriyate. अत्र तु विद्यते केषुचित् प्रयोगेषु रूपस्य प्रवृत्तिः भवत्येव, केषुचित् प्रयोगेषु न भवति इति निर्णयः. कम्प्लीट् आप्षन् प्रयोग आप्षन् इति सम् प्रयोग प्रयोग already decided which to this is a very major reaction. But there is a Vyavasthita Vibhasa related. This is a Vyavasthita Vibhasa related. Uttra Sinandasya Prayogaha. That's why Abhini Vichate iti Yatra Bharati. And it is the use of a proper Sinanda. But now, Adharasya Karma Samya Bharati, Dithya Yatra Vichate Bharati. Sanargam Abhini Vichate. Aham Abhini Vichate. Adharmam Abhini Vichate. Adharasya Dithya Yatra Vichate. यदा दक्षिणधातोः कृदन्तप्रयोगः अभिनिवेश कृदन्तप्रयोग आफ् द अभिनिधि सिद्धान्त. यदा तु कृदन्तस्य प्रयोगः तदा अस्य सूत्रस्य प्रवृत्तिः नास्ति, अर्थात् आधारस्य कर्मसमयः न भवति, अधिकरणत्वमेव भवति, तथा च सप्तमी क्रियते. पापे अभिनिवेशः, सन्मार्गे अभिनिवेशः, धर्मे अभिनिवेशः इत्यादि उच्यते. प्रवृत्तिः प्रयोगः तत्र सूत्रस्य प्रवृत्तिः भवति, यत्र कृदन्तस्य प्रयोगः तत्र सूत्रस्य प्रवृत्तिः नास्ति. ඒක දවසකට මාසයක්. සතන් දවසකට මාසයක් කියන්නේ අනේ නෑ මොකක්. අනේ මොකක්ද මේක නේද සුඛ. ඒක තමයි ඒක. දැන් ගෝවා අවිභාෂන්නේ ඉතලට ඔක්කො සෝදන ඔක්කොම. සතන්වලද ඒක නිමෙ සුඛ. කල්පනාවේ සම්ප්‍රදාන අනේ කරස්සාව සුඛවත්. සතන් අන්නතරස්සාව ගන්න අනුවකට සුඛ. ආහාරයෙන් ගන්න ඉතින් සංකල්පය තමයි. අත්‍යවශ්‍යම තමයි කර්ම ආසන්නම්. අතිශය සාපාම් කර්ම ඉතින් සත්‍යවාදී ලබුන් අධ්‍යාපනඥානිකේ ප්‍රවෝපකයේ තියෙන්නේ ඒකේ තෝර සූත්‍රයේ ප්‍රවෝපකයේ තියෙනවා ඒක නිකුත් කොම්පයිට් ඉන් ද ෆේසර් ඉන්ට ඕල් ද ටෙක්ස්ට් සූත්‍රයේ ඒක නිකුත් අධ්‍යාපනඥානිකේ ටෝකන් ෆ්‍රොම් ද ප්‍රීවියස් සූත්‍ර ඒක කොපිකෝ ඒක නිකුත් අධ්‍යාපනඥාන සිද්ධුරිතේ දෙන කොපිකෝ
ඒක තමයි සාර්ථක ඒකක මාර්ගය සාර්ථකයි.
ඒකේ මානසික තත්ත්වය අනිවාර්ය ස්වභාවය මොනවද කියලා දැක්කේ ඉතින් ඒක තමයි.
අපට අනේක භාගවහ ඒකම උපකරණය. අපට අනේක උපකරණ ඒකම භාගක.
උප අය අදි ආය ඉති සකාරක උපසංග්‍රහ කරගෙන ඔබට භාගක ඇති ආකාරයි සරව ඉතිස අනුරත්තේ උපාන්‍යයන් පුරා අපි භාගක එනම උප අය අදි ආය එකේ දේශන ඉතරේ කර ගන්නවා උපාන්‍යයන් උපාන්‍යයන් පුරා අපි භාගක
Everybody's going to be able to help you. ఉపమానం చేస్తున్నాము.
ආරක්ෂිත රසම ප්‍රවම අවශ්‍ය දුකන් මතකයවහ
ఆర్థిక వ్యక్తి ప్రథమం లోకల
అభ్యర్థి లోకం అహోహో లోకం తర్వాత విజయాలు ततः सर्वतः इत्येतयोः समानार्थकत्वं वा being generally confused with that one. It means surrounding us on all sides. Yeah. So let's go on to the next one. This is the first 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 one. ಸಮೀಪೇ ಗಂಗಾಯಾ ಸಮೀಪೆ ಅಂತರಾಂತರೇಣ ಯುಕ್ತೆ ಇದು ಅಗ್ರಹಿಸಿತು ಅಂತರಾಂತರೇಣ ಯುಕ್ತೆ ಬ್ರಹ್ಮಕರ್ಮಣಿ ದ್ವಿತೀಯಾದಿ ಪುತ್ರಾದ ದ್ವಿತೀಯಾದಿ ವರ್ತದೆ ಇದಂ ಸೂತ್ರಂ ಭಗವಂತ ಶ್ರೀ ಸಲೀಸ ಅಗ್ರ ವ್ಯವಸ್ಥಿತ ಇದಂ ಸೂತ್ರಂ ಅಂತರಾಂತರೇಣ ಯುಕ್ತೆ ಕರ್ಮಣಿ ದ್ವಿತೀಯಾದಿ ಪುತ್ರ ದ್ವಿತೀಯಾದಿ ವರ್ತದೆ ಅಭ್ಯಾಮ ಯೋಗ ಅಂತರ ವಿಶಿಷ್ಟ ಯೋಗ ಅಂತರೇಣ ವಿಶಿಷ್ಟ ಯೋಗ ದ್ವಿತೀಯಾರ್ಥಿ ಭವತಿ ಅಂತರಾ ಇದು ಅಕಾರಾಂತಂ ಅವ್ಯಯಂ ಅಂತರಾ ಇತ್ಯಸ್ಯ ಇನ್ ಬಿಟ್ವೀನ್ ಅಂತರೇಣ ಇತ್ಯಸ್ಯ ಅಕಾರಾಂತಂ ಅವ್ಯಯಂ ಇದನ್ನು ಅಂತರೇಣ ಲುಕ್ಷೇ ತೃತೀಯ ವಿಭಕ್ತಿ ಅಂತರ ಶಬ್ದಕ್ಕೆ ತೃತೀಯ ವಿಭಕ್ತಿ ವಿಭಾತಿ ತಥಾಪಿ ನ ತೃತೀಯ ವಿಭಕ್ತಿಯಂತಂ ಅಕಾರಾಂತಂ ಅವ್ಯಯಂ ಅಂತರೇಣ ಇತ್ಯ ಅಂತರೇಣ ಇತ್ಯಸ್ಯ ಅರ್ಥದ್ವಯಂ ಅಸ್ತಿ ನ ಇತ್ಯಸ್ಯ ಇತ್ಯರ್ಥ ಅಸ್ತಿ ಅಂತರೇಣ ಹರಿ ನ ಸುಖಂ ಹರಿ ಅಂತರೇಣ ಹರಿ ವಿನಾ ಅಂಗನಾಧವೋ ಮಾಧವಂ ಅಂತರೇಣ ಅಂಗನ ವಿದ್ಯತೆ. ಉಭಯೋ ಮಧ್ಯೆ ವ್ಯತ್ಯಾಸತ್ವ ಅಸ್ತಿ. ಅಂತರೇಣ ಇತ್ಯಸ್ಯ ವಜ್ರೆ ವಿನಾ ಇತ್ಯರ್ಥತೆ ಅಸ್ತಿ. ಉಪಾಭ್ರಾಂ ಯೋಗದಲ್ಲಿ ಟೂ ವರ್ಡ್ ಅಲ್ಲಿ ವಿಚಾರ ಭಕ್ತಿ ಭವತಿ. ಅಂತರಾಂತರೇಣ ವಿತ್ತೆ ಅಸ್ತಿ ಸೂತ್ರ. ಮಾಧವ ಮಾಧವಂ ಮಾಧವಂ ಸಂತರೇಣಾಂಗನ. ಅದು ಪ್ರಥಮ ಸೂತ್ರ ಮತ್ತು ಅನು ಲಕ್ಷಣ. අනුහු ලක්ෂණෝ ඉතිච්ඡේය සමස්තකින්වාහ ඉතිච්ඡේයේ ලක්ෂණේ ගෝති අනුහු ඔක්කම යහස්වා ඉතිකා පහ උපකරණ ප්‍රතිපලස්ථානාම් කාර්යාණාම් නිවාරණම් අපි ආරම්භ ප්‍රයෝජනම් සුදුසුකම් උපකරණ කරනවා තරහට හේතුව තිබුණා අනේක වාස්තුවේ. සෝතන් වතහා සංඥාවක් ඇතුළේ තියෙන දෙයක් තියෙනවා.
අද මම කියන්නම් 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 අද මම
next Saturday, we'll have a 6 o'clock. We'll do the next class.
ఇంకా 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 ఇంకా